हिम न पारन्ते परम विदुषो यद्य सदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः अथावाच सर्वस्वमतिपरिणामावधिगृणन् ममाप्येष स्तोत्रे हरनिरपवादः परिकरः अतीतः पन्थानन्तव च महिमा वां मनसयो रतद्वावृत्यायञ्च कितमभिधत्ते श्रुतिरपि सकस्य स्तोतव्यकतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः मधुस्फीता वाच परममृतं निर्मितवत स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् मम त्वेतावाणीं गुणकथनपुण्येन भवतः पुनामित्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता तवैश्वर्यं यत्तज्जगदुदय रक्षा प्रलयकृत त्रयी वस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयामरमणिं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः किमीह किङ्कायः स खलु किमुपायस्त्रिभुवनम् किमाधारो धाता सृजति किमुपादानैति च अतर्कैश्वर्यै त्वय्यनवसरदुस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः अजन्मानो लोकाः किमवयववन्तोऽपि जगता मधिष्ठातारं किं भवविधिरनादृत्य भवति अनीशो वा कुर्याद्भुवनजननेकपरिकरो यतो मन्दास्त्वां प्रत्यमरवरसंशेरत इमे त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदपथ्यमिति च रुचीनां वैचित्र्यादृचुकुटिलनापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव महोक्षखट्वाङ्गं परशुरजिनं भस्मफणिनः कपालञ्चेति यत्तव वरदतन्त्रोपकरणम् सुरास्तान्तामृद्धिं दधति च भवद्भ्रूप्रणिहितां न हि स्वात्मा रामो विषयमृगतृष्णाभ्रमयति ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदम् परो द्रव्याद्रव्ये जगति गदति व्यस्तविषये समस्तेऽप्येत्तस्मिन् पुरमथनतैर्विस्मित इव स्तुवं जिह्रेमि त्वान्न खलु ननु दृष्टा मुखरता तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चिर्हरिरधः परिच्छेतुं यातावनलमनलस्कन्धवपुषः ततो भक्ति श्रद्धा भरगुरुगृणद्भ्यां गिरिशयत् स्वयन्तस्थेताभ्यां तव किमनुवृत्तिर्न फलति अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहून भृतरणकण्डूपरवशान् शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास्त्वद्भक्ते स्त्रिपुरहरविस्फूर्जितमिदम् अमुष्यत्वत्सेवासमधिगतसारं भुजवनम् बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः अलभ्यापातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीत् ध्रुवमुपचितो मुह्यति खलः यद्वृद्धिं सुत्राम्णो वरदपरमोच्चैरपि सती मधश्चक्रे बाणपरिजनविधेयस्त्रिभुवनः न तच्चित्रं तस्मिन् वरिवसि तरी त्वच्चरणयोः न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतीः अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्यासीद्यस्त्रिनयनविषौ संहृतवतः सकल्माशक्कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः असिद्धार्थानैव क्वचिदपि स देवासुरनरे निवर्तन्ते नित्यं जगति जैनो यस्य विशिखः स पश्यन्नीषत्वामितरसुरसाधारणमभूत् स्मर स्मर्तव्यात्मा नहि वशिशुपथ्य परिभवः महीपादाघाताद् व्रजति सहसा संशयपदम् पदं विष्णोर्भ्रामद् भुजपरिघरुग्णग्रहगणम् मुहुर्दौर्दौस्थ्यं यात्यनिभृतजटा ताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारायपृषतलघुदृष्टशिरसि ते जगद्वीपाकारं जलधिवलयं तेन कृतमी त्यनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः रथक्षोणीयन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्को रथचरणपाणिश्शर इति दिधक्षोऽस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिः विधेयै क्रीडन्त्यो न खलु परतन्त्राप्रभुधियः हरिस्ते साहस्रं कमलबलिमाधाय पदयोः यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलं गतो भक्त्युद्रेकपरिणतिमसौ चक्रवपुषा त्रयाणौ रक्षायै त्रिपुरहरजागर्ति जगताम् क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमताम् क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते अतस्त्वं सम्प्रेक्ष क्रतुषु फलदानप्रतिभुवम् श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसुजनः क्रियादक्षो दक्षक्रतुपतिरधीशस्तनुभृता मृषीणामार्त्विज्यं शरणदसदस्यासुरगणाः क्रतुभ्रेशस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुश्रद्धाविधुरमभिचाराय हिमखाः प्रजानाथन्नाथ प्रसभमभिकं स्वान्दुहितरम् गतं रोहितभूतांरिरमयिषु मृष्यस्य वपुषा धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तन्तेद्यापि त्यजति न मृगव्याधरभसः स्वलावण्या शंसा धृतधनुषमह्नाय तृणवत् पुरप्लुष्टं दृष्ट्वा पुरमथनपुष्पायुधमपि यदि स्त्रैणं देवी यमनिरतदेहार्धघटना दवैति त्वामद्धा पतवरदमुग्धा युवतयः श्मशानेष्वा क्रीडा स्मरहरपिशाच्चासहचराश्चिता भस्मालेप स्रगपि नृकरोटि परिकरः अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि मनप्रत्यक्षित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः यदालोक्याह्लादौ हृद इव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवः स्त्वमापस्त्वं व्योम त्वमुधरणिरात्मा त्वमिति च परिच्छन्नामेवं त्वयि परिणता बिभ्रतु गिरम् न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वन्न भवसि त्रयिन्तिस्रो वृत्तिस्त्रिभुवनमथोत्रीनपि सुरान् अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति तुरीयन्ते धामध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणदगृणात्योमिति पदम् भवः शर्वो रुद्र पशुपतिरथोग्रसह महांस्तथा भीमेशानाविति यदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकं प्रविचरति देवश्रुतिरपि प्रियायास्मै धाम्ने प्रणिहित नमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमक्षोदिष्ठाय स्मरहरमहिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः कृशपरिणतिचेतक् क्लेशवशं क्वचेदं क्वच तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः इति चकितममन्दीकृत्य मां भक्तिराधा वरदचरणयोस्ते वाक्यपुष्पोपहारम् असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमूर्वी लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव गुणानामीश पारन्नयाति असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेर्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य सकलगुणवरिष्ठ पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैस्तोत्रमेतच्चकार अहरहर नवद्यन्धूर्जटे स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्यः स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च महेशान्नापरो देवो महिम्नो नापरास्तुतिः अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोपरम् दीक्षादानं तपस्तीर्थं स्नानौ यागादिकः क्रियः महिम्नस्तव पाठस्य कलान्नार्हन्ति षोडशीम् कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेर्देवदेवस्य दासः स खलु निजमहिम्नो भ्रष्ट एवास्य रोषान् स्तवनमिदमकार्षित् दिव्यदिव्यं महिम्नः सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्य प्राञ्जलिर्नान्यचेतः व्रजति शिवसमीपं किन्नरैस्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् अनौपम्यं मनोहारी शिवमीश्वरवर्णनम् इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः अर्पिता तेन देवेश प्रियतां मे सदाशिवः तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर यादृशोऽसि महादेव तादृशाय नमो नमः एककालं द्विकालं वा त्रिकालय पठेन्नरः सर्वपापविनिर्मुक्तः शिवलोके महीयते श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः इति श्रीपुष्पदन्ताचार्यविरचितं शिवमहिम्नस्तोत्रं समाप्तम्।